एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री बालेन्द्र शाह सुनसरी प्रभृति सुजनपदेषु उत्पन्नां संवेदनशीला अवस्थां समाधातुं, नागरिकाणां जीवनस्य सुरक्षां विधातुं, सामाजिक सद्भावं सुदृढं कर्तुं च सर्वकारः योजनाबद्धतया अग्रे वर्धमानोऽस्तीति उक्तवान् वर्तते। सीमा प्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये मध्य प्रदेशात् प्रतिनिधित्वं कुर्वद्भिः रासोपा दलस्य सांसदै सह सम्भूते विमर्शने प्रधानमन्त्री शाह राज्य संयन्त्रस्य सम्पूर्णानि अंगानि उच्च सावधानतापूर्वकं परिचालितानि सन्तीत्यतः नागरिकान् अविचलिततया संयमतां ग्रहीतुम् अनुरुणत्। प्रधानमन्त्री शाह प्रथमतो नागरिकेषु ध्यानं केन्द्रीकर्तुं, सुरक्षायाः प्रत्याभूतिं दापयितुं, घटनानां निष्पक्षतया अनुसन्धानं विधातुं च सर्वकारः क्रियाशीलोऽस्तीति प्रावोचत्। प्रधानमन्त्री बालेन्द्र शाह सर्वकारेण प्रदेशानां सशक्तिकरणम् अधिकारयुतानां विधानस्य कार्यं च उच्चै प्राथमिकतायां स्थापितम् अस्तीति समस्पष्टयति। तराई मधेश क्षेत्रस्य पश्चात्तन परिस्थितिर्विषये विमृष्टुं प्रधानमन्त्री मन्त्री परिषद कार्यालये आयोजिते उपवेशे प्रधानमन्त्री शाह संविधानस्य पूर्णतया क्रियान्वयनेन एव सम्पूर्णः प्रदेशः पूर्णरूपेण सशक्तः भविष्यन्ति इति न्यश्चिनोत्। संविधानस्य क्रियान्वयनानन्तरं संघीयतायाः अभ्यासु जायमानोस्तीति चर्चयन् प्रधानमन्त्री शाह प्रदेशान् अधिकारयुतान् विधातुं सर्वकारः प्रतिबद्धोऽस्तीति प्रावोचत्। उपवेशे तराई मधेश क्षेत्रस्य महन्त ठाकुर, राजेन्द्र महतो, उपेन्द्र यादव, सीके राउत, समीप मिया अन्सारी, प्रभु शाह, अमरेश कुमार सिंह इत्येवमादयो नेतारः सहभागिना आसन्। मधेश केन्द्रितानां राजनीतिक दलानां नेतृभिः प्रधानमन्त्रिणा बालेन्द्र शाहेन सह विहितं विमर्शनं समीचीनमस्तीति उक्तं वर्तते। प्रधानमन्त्रिणा शाहेन सह सम्भूतस्य विमर्शनस्य अनन्तरं नेतृभिः अनेन प्रकारेण विहितेन विमर्शनेन समस्यानां समाधानाय महत्वपूर्णा भूमिका निरूह्यते इत्युक्तमासीत्। पश्चात्तन समये तराई मधेश क्षेत्रस्य जनपदेषु दृष्टानां समस्यानां समाधानाय प्रधानमन्त्री शाह संवेदनशीलः प्रतिबद्धश्चास्तीति आत्मना अनुभूतमिति सांसदैः उक्तं वर्तते। उपवेशे तराई मधेश क्षेत्रस्य नेतारः तराई क्षेत्रस्य सामयिक समस्यायाः सुरक्षायाः समाहोयस्य सुशासनस्य प्रत्याभूतेः संघीयतायाः सबलीकरणस्य च विषयेषु स्वकीयां धारणां विश्लेषणं परामर्शनं च प्रस्तुतवन्तः आसन्। अत्रैव राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछानेभिदस्य अग्रेसरतायां ह्यः सिंह प्रासादे सम्भूते विमर्शने विभिन्नानां धार्मिक समुदायानां नेतृभिः शान्तेः सद्भावस्य धार्मिक सहिष्णुतायाः विधेय शासनस्य राष्ट्र एकतायाः पक्षेषु दृढतापूर्वकं स्थातुं सर्वे अनुरुद्धा वर्तन्ते। अत्रान्तरे नेपाली कांग्रेस दलेन सामाजिक सद्भावस्य धार्मिक सहिष्णुतायाः एकतायाश्च कृते विभिन्नेषु स्तरेषु विभिन्नै दलैः सामाजिक संस्थाभिः सर्वकारेण अन्यै पक्षैश्च सह संवादः करिष्यते इति ज्ञापितं वर्तते। गृहमन्त्रिणः सुदन गुरुङ इत्यस्य गृहमन्त्रालयस्य च निर्देशनस्य अनुसारेण मधेश कोशी प्रदेशयोः विभिन्न जनपदेषु सुरक्षा व्यवस्था सुदृढा विहिता वर्तते। विशेषतः संवेदनशील क्षेत्रेषु ड्रोन इति उपकरणस्य माध्यमेन अनुगमनस्य कार्यं तीव्रं विहितं वर्तते। अत्रान्तरे सामाजिक सद्भावे धार्मिक सहिष्णुतायाञ्च प्रभावसर्जकः भ्रमस्य प्रसारकः विधि विपरीत गतिविधिषु संलग्नाश्च एकेऽपि भवन्ति प्रमाणानि आधृत्य विधेरनुसारेण दण्डयिष्यन्ते इति सुरक्षा निकाये ज्ञापितम् वर्तते। स्थानीय प्रशासनेन च शान्तिं संयमतां सामाजिक सद्भावञ्च स्थापयितुं नागरिकान् अनुरुन्धता भ्रामक समाचारान् न विश्वसितुं सर्वे अनुरुद्धा वर्तन्ते। तराई मधेश क्षेत्रस्य प्रमुख नगरे बीरगंज स्थाने सामाजिक सद्भावं भ्रातृत्वम् एकतांश स्थापयितुं च स्थानीय प्रशासनस्य जनप्रतिनिधिनांश संयुक्ता योजनायां बृहत् सद्भावना सभा सम्पन्नास्ति। सुनसरी जनपदे घटितायाः घटनायाः पश्चात् धनुषा जनपदे विकसित परिस्थितिं प्रदर्शनञ्च विचार्य उपविष्टेन सर्वपक्षीयोपवेशेन अद्य जनकपुरधामनि सद्भाव मानव मेलां कर्तुं निर्णीतम् वर्तते। सिरा जनपदस्य मिर्चिया स्थाने ह्य सामाजिक सद्भाव मानव प्रदर्शनम् आयोजितं वर्तते। सिरा जनपदे ह्योऽपि गोलबजार लहान नगरपालिकयोः पार्श्ववर्ति क्षेत्रेषु निषेधाज्ञा क्रियान्विता वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन सुनसरी जनपदस्य देवानगंज ग्रामपालिकायाः कप्तानगंज प्रभृतिषु स्थानेषु दृष्टायाः असहज परिस्थितिर्विषये पूर्व राष्ट्रपतिना डॉ रामवरण यादवेन पूर्वोपराष्ट्रपतिना परमानन्द झा इत्यनेन च सह विमृष्टमस्ति। शीतल निवासवर्तिनि राष्ट्रपति भवने ह्य सम्भूते विमर्शने घटनां प्रति चिन्तां प्रकटय बहुकालात् विद्यमानां सामाजिकीं धार्मिकीं जातीयां च सहिष्णुतां राष्ट्रे एकतां च स्थापयितुं सर्वेषां प्रयत्नः आवश्यकोऽस्तीति धारणा व्यक्तासीदिति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः अज्ञापयत्। तदवसरे पूर्व राष्ट्रपतिना डॉ यादवेन सर्वकारेण विषमायाम् अवस्थायां सर्वहि राजनीतिक दलहि नागरिक समाजेन च सह समस्यायाः समाधानाय विमृश्य कार्यं करणीयमिति प्रोक्तमासीत्। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः काष्ठमण्डपोपत्यकातः विस्थापितानां बालबालिकानां अध्ययने कथं विधापि न्यूनता न स्यादित्यत्र सर्वकारः प्रतिबद्धोऽस्तीति उक्तवान् वर्तते। राष्ट्रियसभायाः स्तनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री पोखरेलः विस्थापिताः छात्राः नियमितरूपेण पठन पाठनस्य कृते समीपवर्तिषु विद्यालयेषु स्थानान्तरिताः सन्ति इति अगदत्। मन्त्री पोखरेलः विश्वविद्यालयेषु शैक्षिक संस्थासु च सुशासनं योग्यता प्रणालीं च विचार्य पदाधिकारिणां नियुक्ति प्रक्रिया अग्रेसारिता अस्ति इति प्रावोचत्। राष्ट्रियसभायाः स्तनोपवेशे सांसदैः सामाजिक सद्भावम् एकतां च स्थापयितुं सर्वकारस्य ध्यानाकर्षणं विहितमासीत्। सांसदैः तराई मधेस क्षेत्रे साम्प्रदायिकतः वर्धमानानन्तरं सर्वकारेण जनतायै आश्वासनं प्रदातव्यमिति उक्त्वा घटनायाः विषये सदनं ज्ञापयितुं याचना विहिता। उपवेशे आकस्मिक शून्य विषय समयेषु च सांसदाः सुरक्षा निकायैः विहितेन अधिकेन बलप्रयोगेण मानवीयाः क्षतेः प्राप्तेः कारणात् समस्या जटिला सञ्जातेति उक्तवन्तः। पाकिस्तान देशस्य ब्रोड पीक हिमशिखरे हिमस्खलने निपत्य मृतानां चतुर्णाम् आरोहिणां शवः प्राप्ताः सन्ति। हिमस्खलने निपत्य प्रख्यातेन आरोहिणा निर्मल पूर्जा इत्यनेन सहितः षड्जनः विलुप्ताः सन्ति। आरोहणसमूहे निर्मल पूर्जा इत्यनेन सहिता किली पेम्बा शेर्पा निमा शेर्पा थवाङ थिन्दु ग्यालु शेर्पा चेति षड् नेपालिनः एकः पाकिस्तान देशस्य एकः ओमान देशस्य एकः अमेरिका देशस्य एकः चीन देशस्य च नागरिकाः विलुप्ताः वर्तन्ते इति समाचारः।